ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र आत्मनेपदिनः धातवः तेषां लङ्लकारः अपि विधिलिङ्लकारः च इति विषयः। तत्र विषयद्वयं विधिलिङ्गलकारः अपि लङ्लकारः अपि। तत्र किमर्थम् इत्युक्ते तत्र विधिलिङ्लकारः वा अथवा लङ्लकारः पश्यामः तत्र आत्मनेपदी धातूनां तत्र पुटसङ्ख्या अस्ति तत्र द्विशताधिकतमे पुटे तत्र द्विशताधिकतमे पुटे तत्र आत्मनेपदी धातूनां लङ्लकाररूपाणि दत्तानि सन्ति। तत्र पश्यन्तु तत्र लब् धातोः रूपम् अलभत अलभेताम् अलभन्त इति तत्र दत्तमस्ति। तत्र सर्वत्र अकारः अस्ति, तत्र लङ्लकारः तत्र अकारः आदौ अस्ति। अपि यदि वयं विधिलिङ्लकारं पश्यामः तत्र लब् धातोः तत्र किम् अस्ति लभेत, यत्र अलभत अस्ति तत्र लभेत इति अस्ति, यत्र अलभेताम् इति अस्ति तत्र लभेयाताम् इति अस्ति। अत्र किमस्ति तत्र सर्वत्र विधिलिङ्गकारे सर्वत्र मध्ये एकारः अस्ति, एकारः मध्ये अस्ति तत्र लभेत लभेयाताम् इति। अपि तत्र मध्ये मध्ये यकारः अपि अस्ति, यकारः तत्र कुत्र कुत्र भवति यकारः, तत्र गीताञ्जलिभगिनी तत्र विधिलिङ्गकारे तत्र सर्वत्र एकारः अस्ति खलु भगिनि?
सर्वत्र इत्युक्ते एकार तु अस्ति किन्तु
या अपि अस्ति, हा एकार तु सर्वत्र अस्ति तत्र लभे इति रूपमेव अस्ति खलु किन्तु लभ इति नास्ति। हा हा तत्र सर्वत्र तत्र विधिलिङ्गकारे सर्वत्र लभे 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 लभेत लभे यातां लभेरन् इति अस्ति, सर्वत्र एकारः अस्ति। किन्तु लङ्लकारे सर्वत्र आदौ अकारः अस्ति किन्तु तत्र एकारः नास्ति। एकारः केषुचित् स्थलेषु एव अस्ति, तत्र लब् धातोः आत्मने तत्र लङ्लकाररूपाणि पश्यामश्चेत् तत्र कुत्र एकारः अस्ति मध्ये? एकारः एकारः मध्ये, हा
प्रथमपुरुषः द्विवचनं, मध्यपुरुषः द्विवचनं, उत्तमपुरुषः एकवचनं।
हा केवलं तत्र मध्ये एकारः अस्ति, तत्र सर्वदा अलभत इति अस्ति किन्तु केवलं तत्र अलभेताम् अलभेथाम् अपि अलभे इति अस्ति। समीचीनं महोदय। अपि तत्र यत्र विधिलिङ्गकारे यकारः आगच्छति तत्रैव लङ्लकारे एकारः आगच्छति, अतः तत्र किं वक्तुं शक्नुमः तयोः मध्ये साम्यम् अस्ति। विधिलिङ्गकारः अपि लङ्लकारः आत्मनेपदी धातूनां तत्र तयोः मध्ये तत्र साम्यम् अस्ति। अपि तत्र प्रथमपुरुषे बहुवचने तत्र लभेरन् इति अस्ति, अपि प्रथमपुरुषे बहुवचने लङ्लकारे अलभन्त इति अस्ति। हा तत्र तु साम्यं नास्ति किन्तु तत्र अन्यत्र तत्र लभेत इति स्थाने अलभत इति तत्र साम्यं तु अस्ति, तत्र सर्वं साम्यम् इति नास्ति किन्तु आधिक्येन साम्यं तु अस्ति इति वक्तुं शक्नुमः। अस्तु तर्हि अतः तत्र तयोः लकारयोः एकः एव पाठः इति स्वीकृतः अस्ति इदानीम् अस्तु तर्हि तत्र गतवर्गे पाठं पठितवन्तः किन्तु तत्र पङ्क्तिशः सम्पूर्णतया न कृतवन्तः इति मन्ये अतः पुनः तत्र आरम्भतः पङ्क्तिशः पठामः तर्हि अतः तत्र अस्तु तत्र गीताञ्जलि भगिनी आरम्भं करोति वा भगिनि
आं महोदय धीरमाता विदुला आत्मनेपदिनः धातवः लङ्लकारः विधि लिङ्लकारश्च सौ वीरदेशे सञ्जयः नाम राजा अवर्तत तस्य पिता वृद्धक्षत्रः माता च विदुला
तत्र
सौ वीरदेशे इति तु सप्तमी अस्ति इत्युक्ते कस्य देशस्य नाम सौवीरदेशे तत्र इत्युक्ते कुत्र इति कथा अभवत् इति कथा सौवीरदेशे अभवत् तत्र सञ्जयः अवर्तत सञ्जयः नाम राजा इत्युक्ते कीदृशः सञ्जयः सञ्जयः राजा अस्ति
तत्र अवर्तत इति अस्ति अवर्तत इति लकारः कः
अवर्तत तु प्रथमपुरुष एकवचन लङ्लकार अस्ति आदौ अडागमः अस्ति अ अस्ति
समीचीनं तत्र लट् लकारे रूपं किम् अस्ति
लट् लकारे वर्तते
हा इति एव समीचीनं भगिनि हा वर्तते
धातु
अस्ति हा आत्मनेपदी धातु अस्ति अतः तत्र अवर्तत नो चेत् तत्र अपठत् इति भवेत् खलु पठति अपठत् परस्मैपदी धातु एतत्तु अवर्तत इति अस्ति अतः आत्मनेपदी धातु इति ज्ञातुं शक्नुमः समीचीनं भगिनि हा
तस्य पिता वृद्धक्षत्रः इति अपि तस्य पितुः नाम अस्ति
वृद्धक्षत्रः
इत्युक्ते एक्स्पीरियन्स्ड् वारियर् समथिङ्ग्
हा तादृशम् अस्ति सत्यं भगिनि हा सत्यं सत्यं भगिनि
मातुः नाम अपि दत्तं विदुला आकारान्त विदुला इति तस्य मातुः नाम विदुला इति दत्तं महोदय
सत्यं भगिनि हा
कदाचित् सञ्जयस्य समीपराज्यस्थेन सिन्धुराजेन सह युद्धं प्रावर्तत कदाचित् तु अव्ययपदम् अस्ति इत्युक्ते समयवाचि कदाचित् इत्युक्ते एकस्मिन् समये यस्य षष्टिविभक्ति समीपराजराज्यस्थेन इत्युक्ते एकम् अन्यराज राज्य अस्ति तत् कुत्र अस्ति समीपे अस्ति
समीचीनं
तत्र समीपराज्यस्थेन इति तु तृतीया तृतीय एकवचन सिन्धुराजेन अपि च इत्युक्ते विशेषणविशेष्यभावः अस्ति तत्र
समीचीनं भगिनि समीचीनं
सः इत्युक्ते इति उपपदविभक्तिकारणेन तृतीयविभक्ति आयाति समीपराज्यस्थेन सिन्धुराजेन सह इत्युक्ते तृतीया उपपदविभक्ति प्रावर्तत युद्धं तु वयं जानीमः इति तु कर्मपदमस्ति अत्र प्रावर्तत इत्युक्ते प्र उपसर्ग योगः अवर्तत
प्रयोगः अवर्तत तत्र लट्लकारे किम् अस्ति
लट्लकारे प्रवर्तति
प्रवर्तते
प्रवर्तते
आत्मनेपदी धातु पुनः अस्तु समीचीनं भगिनि प्रवर्तत तत्र लङ्लकारे प्रावर्तत इति समीचीनं इदानीं तत्र तृतीया इति समीचीनम् उक्तं तत्र सः इति अस्ति केन सह युद्धं प्रावर्तत तत्र सिन्धुराजेन सह युद्धं प्रावर्तत इति अस्ति. तत्र तृतीयविभक्तिरूपं स्वीकृत्य तत्र प्रथमविभक्तिरूपं किम् अस्ति वदतु.
हा, प्रथमा अस्ति चेत् सञ्जयः
न न सञ्जयस्य एव सञ्जयस्य इति केवलं तृतीय केवलं तृतीया यदस्ति तद् प्रथमविभक्तो वदतु. तत्र समीपराज्यस्थेन सिन्धुराजेन इति
राज्यस्थः सिन्धुराज राजा.
हा समीचीनं. हा सिन्धुर प्रायशः सिन्धुराजा इति नास्ति, राजः सिन्धुराजः इति प्रायशः अस्ति. तत्र हा किमर्थम् इत्युक्ते भगिनी तत्र राजा अस्ति चेत् तत्र नकारान्तपदं खलु, भवती जानाति एव. तत्र राजा इति अस्ति चेत् राजन् इति प्रातिपदिकं खलु. किन्तु यदि राजा अस्ति चेत् तत्र अत्र सिन्धुराजा अस्ति चेत् तत्र राजा इति पदस्य तृतीया किम् अस्ति?
राजा अस्ति तु राजेन.
न न न नकारान्तपदम् अस्ति खलु, हलन्तपदं तृतीया इति.
यदि महोदय भवतः प्रश्नः राजन् अस्ति चेत् तृतीया किं वा?
हा हा राजन् इति पदस्य तृतीया किम् इति. हा राजन् प्रातिपदिकं तृतीया विभक्ति एकवचनं किम् इति.
राज्ञा वा?
हा समीचीनम्. हा किन्तु अत्र राजेन इति अस्ति खलु भगिनि, अतः तत्र सिन्धुराजः. यथा तत्र राजा नकारान्तपदं राजन्, किन्तु महाराजः अकारान्तपदम्.
अस्तु अस्तु
अवगतं. अतः तत्र सिन्धुराजः इति प्रथमविभक्तिरूपम् एकवचनम्, अपि तस्मात् प्राक् तत्र समीपराज्यस्थः सिन्धुराजः. हा अतः तत्र समीपराज्यस्थः इत्युक्ते अर्थः क? हा लक्ष्मी भगिनी नमस्कारः भगिनी. हा पुटसङ्ख्या अस्ति तत्र एकाधिकशततमे शततमपुटं.
यथा गृहस्थः इत्युक्ते यत्र
स्थानं किम् इति उक्तं. समीचीनं भगिनी. हा तत्र समीपराज्यस्थ समीपराज्ये स्थितः सिन्धुराजः. समीचीनं भगिनी. हा तत्र सिन्धुराजः कीदृशः? तत् सः समीपराज्ये स्थितः सिन्धुराजः, अतः समीपराज्यस्थः सिन्धुराजः तेन सह युद्धं प्रावर्तत. समीचीनं भगिनि. हा अग्रे
इत्युक्ते सौवीर एकं देशमस्ति, एकः अपि च अत्र सिन्धु तु नाम वा तत्र?
हा सिन्धु इति नाम, सिन्धु इति नाम सिन्धुराज्यम्
इत्युक्ते
सिन्धुरदेशं. हा सिन्धु तत्र सौवीरराज्यमपि इति वक्तुं शक्नुमः.
किन्तु सिन्धु तत्र राज्ञः नाम वा राज्यस्य नाम वा?
ओ सत्यं भगिनि. हा तत्र सिन्धुराजः तत् न जानीमः. समीचीनं भगिनि. हा अतः तत्र सिन्धुराजः तत्र सिन्धु इति प्रदेशं वा अथवा सिन्धुराजः इति तस्य केवलं तस्य नाम, किन्तु तत्र राज्यस्य नाम सिन्धु इति नास्ति वा न जानीमः. सत्यं भगिनि. हा किन्तु समीपराज्यस्थ इत्युक्ते तत्र सः तत्र किं तत्र समीपस्थ इत्युक्ते तत्र प्रातिवेश्य इति तत्र खलु, प्रतिवेशी अस्ति तत्र. तत्र हा तत्र प्रतिवेशी इत्युक्ते नेबर् इति. हा
ओ अस्ति वा
खलु समीपस्थ इत्युक्ते तत्र एतत् राज्यम् अस्ति, सौवीरदेशम् अथवा राज्यम् अस्ति तस्य प्रतिवेशी इति. हा
ओ प्रतिवेशिन् अस्ति, तत्तु प्रथमवारम् इति.
हा प्रतिवेशी नेबर् इति. हा
ओ उत्तमं धन्यवादः.
अतः तत्र देशः तत्र समीपराज्यम् इति नपुंसकलिङ्गे अस्ति, किन्तु समीपदेशः तत्र नाम तत्र प्रतिवेशी देशः तत्र समीपे एव अस्ति. हा अतः तत्र तस्य राजा, तस्य राजा अस्ति तत्र सिन्धुराजा इति स्वीकर्तुं शक्नुमः. हा समीचीनं भगिनि, अस्तु अग्रे.
यद्यपि सञ्जयः भृशम् अयुध्यत तथापि तस्य सैन्यं पराजयम् अलभत.
हा अयुध्यत इति पुनः लङ्लकारः,
लङ् अस्ति अपि च प्रथमपुरुष एकवचन.
लट्लकार किम् अस्ति?
लट् अस्ति चेत् युध्यते वा?
युध्यते. हा समीचीनं. हा अपि अलभत इति तत्र लट्लकारं किम् अस्ति?
अलभत अपि आत्मनेपदी रूपं, प्रथम पुरुष एकवचन लङ् रूपं. लट् अस्ति चेत् लभत् भाषते, लभते,
लभते एव, लभते एव. समीचीनं. हा इदानीं लङ्लकारः अस्ति तत्र यद्यपि तथापि इति रूपं तत्र सञ्जयः भृशं, भृशं तत्र कौशलं, कौशलेन तत्र निपुणतया सः युद्धं कृतवान् अयुध्यत.
कुशली अपि
सः कुशली, सः कुशली, किन्तु तत्र कथम् आसीत् इति तत्र तस्य हा तत्र अत्र प्रायश भृशम् इति अयुध्यत तत्र क्रियाविशेषणं तस्य क्रियाविशेषणं, न सञ्जयस्य विशेषणं न खलु. सः निपुणः सञ्जयः, किन्तु सञ्जयः निपुणतया अयुध्यत इति, अतः तत्र भृशम् अयुध्यत.
तथापि तस्य सैन्यं पराजयम् अलभत् इत्युक्ते तस्य इत्युक्ते कस्य? सञ्जयस्य.
हा सञ्जयस्य सैन्यं पराजयम् अलभत्.
युद्धं युद्धे वीरं न अभवत्.
हा तत्र जयं न प्राप्तवन्तः, अथवा तत्र न तत्र जितवान् इति अस्ति खलु भगिनि, तावत् रूपं
महोदय पुनः वदतु.
जितवान्, जितवान्,
जितवान्, जितवान्, जितवन्तौ, जितवन्तः इत्युक्ते सैन्यं
सैन्यं तु, सैन्यं तु तत्र जितवान् इति अस्ति इति मन्ये खलु तत्र.
जितवान् तु तव तु अस्ति, जितवान् न, जितवान् न अभवत्
तत्र, न जितवन्तः तावदेव खलु, किन्तु अत्र सैन्यम् इति अस्ति अतः न जितवत्. वदतु महोदय.
जी धातु अकर्मक अस्ति, परन्तु यदा उपसर्गः भवति तत् तत्र आत्मनेपदी भवति, अपि च तत्र सकर्मकः भवति, अन्यथा जयति जयति भवति वा, अहं न जानामि पराजयति
न न, किन्तु महोदय तत्र जितवान् इति रूपं तु अस्ति खलु महोदय.
जितवान् अस्ति तत्र,
केवलं तत्र युद्धं जितवन्तः इति न, केवलं जितवान्, जितवान् इति तत्र, तत्र सैन्यं जितवत् इति अतः तत्र तदपि वक्तुं शक्नुमः भगिनि. हा
सैन्यं
हा न जितवत्, हा क्षम्यतां, हा सत्यं सत्यं, न जितवत्, हा सैन्यं न जितवत्, न जितवत्. हा
इत्युक्ते जयं, जयं न, जयम् अलभत्.
हा अथवा न प्राप्तवन्तः, न प्राप्नु तत्र पुनः तत्र प्राप्नुवन्तः तत्र प्राप्नुवन्तः तत्र प्राप्नुवान् इति तवत् रूपमेव अस्ति, किन्तु तत्र प्राप्नोति आप्नोति इति पदस्य तत्र लङ्लकाररूपं किम् अस्ति?
न प्राप्नोत्.
हा तत्र आप्नोत् इति एकवचने सैन्यं, सैन्यं, सैन्यम् इति अस्ति अतः एकवचने एव तत्र
सैन्यं न प्राप्नोत्.
हा न प्राप्नोत्, जयं न प्राप्नोत् अथवा पराजयं प्राप्नोत्,
अथवा पराजयं प्राप्नोत् जयं न
प्राप्नोत्. समीचीनम् अग्रे
क्षम्यता महोदय, जयति इति तत्तु सकर्मक एव, अहं
सकर्मक भवान् समीचीनं महोदय, धन्यवादः 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 महोदय.
तादृश भवति खलु अकर्मक अस्ति
सत्यं, हा हा तत्र उपसर्गेण तत्र सत्यं
सकर्मकः भवति
सत्यं सत्यं हा धन्यवादः महोदय. हा अग्रे भगिनि.
अस्तु अस्तु. बहवः सैनिका अम्रियन्त, कस्य सैनिकाः? सञ्जयस्य सैनिकाः अम्रियन्त. अम्रियन्त अपि आत्मनेपदे.
हा समीचीनं. तत्र लट् लकारे एकवचने रूपं किं?
लट् अस्ति चेत् आम्रियन् म्रियन्ते.
हा एकवचने
म्रियते.
हा इति समीचीनं. हा समीचीनं भगिनि. हा अग्रे.
सैनिकाः आम्रियन्त.
तत्र सैनिकः अम्रिय अम्रियत अलभत अम्रियत खलु.
किन्तु एकमेव न
सैनिक न एकवचने अम्रियत, बहुवचने अम्रियन्त. समीचीनं भगिनि. हा अग्रे.
सैनिकः अम्रियत, सैनिकौ अम्रिय
अम्रियेताम् अम्रियेताम्
तत्र येताम् अहं
क्षम्यतां.
सैनिकौ अम्रियेताम्, सैनिकाः अम्रियन्त.
हा इति समीचीनं भगिनि. हा अग्रे.
सञ्जयः प्राणान् रक्षितुं ततः पलायत. कीदृशः सञ्जयः? भीतः सञ्जयः.
तत्र हा
प्राणान् रक्षितुं, प्राणान् तु कर्मपदं, रक्षितुं प्रत्ययः.
समीचीनं.
रक्षायाः इच्छा वा इति समीचीनं.
रक्षणं कर्तुं समीचीनं. हा
रक्षणं कर्तुं,
रक्षणं कर्तुं, हा रक्षितुं. हा अपि ततः इति अस्ति. ततः इत्युक्ते कुतः?
ततः इत्युक्ते युद्धस्थले.
हा युद्धस्थलात्, युद्धस्थलात्,
युद्धस्थलात्.
तत्र तत्र रणरङ्गात् इति. हा खलु.
महोदय क्षम्यतां महोदय, पुटसङ्ख्या किं?
हा हा एकाधिकशततमे पुटे भगिनि. एकाधिक एकाधिकशततमे शततमपुटं.
पलायत. पलायत इति विशिष्टपदम् अस्ति. लङ्रूपम् अस्ति. आदौ अ न दृश्यते यद्यपि, तथापि लङ्रूपम् अस्ति. कथं? पलायोगः अयोगः.
हा तत्र रघुपतिमोदिन प्रेषितम् अस्ति. तत्र परायोगः आयते इति. हा तत्र
परयोगः आङ्गयोगः.
तत्र आङ्ग् नास्ति भगिनि. हा तत्र किन्तु केवलं परायोगः अयते इति एव. तत्र रघुपतिमहोदय पुनः एकवारं वदतु.
परायोग परा इति पूर्वमहं उक्तवान् अस्ति. परायोग आङ्ग् इति नास्ति, एक एव अस्ति. परा इति एव अस्ति. अतः परायोग अयते इति पलायते इति भवति. अतः परायोग अयत इति लङ्लकार अस्ति. अत्र लकारस्य
धन्यवादः महोदय. अतः तत्र किम् अस्ति? तत्र पलायत इति लङ्लकारे अस्ति, किन्तु तत्र प्रायशः तत्र हा पुनः तत्र
दीर्घसन्धि भवति.
दीर्घसन्धि अपि तत्र पलायते इति एव खलु महोदय. लट्लकरे अपि तत्र केवलम्
अयते अयते
अयते अलायते योगः परा. तत्र लेपः न समानमेव. अतः तत्र पलायते इति लट्लकरे, पलायत इति लङ्लकरे. समीचीनं.
पलायत लङ् अस्ति. राजभवनम् आगतः सः अन्तःपुरं प्राप्य निरुत्साहायता.
निरुत्साहतया
अशेत. अशेत तत्र लङ् अस्ति.
न न शेते शेते इति लट्लकररूपं
शेते लङ् भूतकालार्थक प्रथमपुरुष एकवचन इत्युक्ते सञ्जयः अशेत
अशेत तत्र निरुत्साहतया इति तत्र विभक्तिका
इत्युक्ते इति अपि क्रियापदस्य विशेषण अस्ति तद्धितपदमस्ति उत्साह यस्य उत्साहः नास्ति
तत्र उत्साहता इति अस्ति निरुत्साहता तत्र भावः तत्र खलु भगिनि उत्साहता सुन्दरता इति तत्र
सुन्दरता इत्युक्ते
भावः भावः सुन्दरः इति तस्य भावः सुन्दरत्वं वा अथवा सुन्दरता तत्र निरुत्साहता नाम निरुत्साहः नास्ति
निरुत्साहतया तु तृतीया अस्ति
हा किन्तु प्रथमतया तत्र निरुत्साहः इति उत्साहः उत्साहः नास्ति इति अतः तत्र निरुत्साहः इदानीं तस्य भावः निरुत्साहः इति तस्य भावः निरुत्साहता इति इदानीम् आकारान्त स्त्रीलिङ्गपदम् इदानीं तत्र भावः अस्ति इदानीं भावभावस्य तृतीया इति कृत्वा निरुत्साहतया इति स्त्रीलिङ्गपदम् अस्ति अतः तत्र निरुत्साहतया अशेत तत्र सः अशेत किन्तु तत्र तत्र हा तत्र किं निद्रा हा निद्राति इति शय्यायाम् स्थितः अस्ति हा यथा चित्रं प्रदर्शयति तथा तत्र हा शय्यायाम् अस्ति किन्तु तत्र उत्साह वदतु भगिनि
समीचीनं
हा 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 किन्तु तस्य सर्व तत्र तस्य उत्साहः सर्व तत्र गतः इदानीं तस्य उत्साहः किं कोऽपि उत्साहः नास्ति तस्य
उत्साहः विना
हा इति समीचीनं भगिनि हा उत्साहरहितः इति तत्र तादृशः सः अस्ति इति समीचीनं भगिनि हा अस्तु धन्यवादः भगिनि हा वदतु भगिनि
कदा कदा इत्युक्ते अन्तःपुरं प्राप्य
हा तत्र सः राजभवनम् आगतः तत्र रणरङ्गात् सः राजभवनम् आगतः आगतवान् तदनन्तरम् अन्तःपुरमपि प्राप्तवान् प्राप्य
राजभवनं प्राविशत् सः अन्तःपुरं प्राप्य निरुत्साहतया अशेत
इति समीचीनं भगिनि हा हा समीचीनं भगिनि अस्तु अग्रे रघुपति महोदय
रणरङ्गात् आगतं पुत्रं विदुला दूरात् एव अलोकत इति लोकते इति अत्र
अलोकतकारः
अस्ति आगतं पुत्रं कस्मात् आगतं रणरङ्गात् आगतं पुत्रं विदुला दूरात् एव अलोकत पश्चात् सा पुत्रस्य निकटं गत्वा अब्रूत सञ्जय भवादृशं भीरुं पुत्रं प्राप्य अहं नितरां लज्जे इति तत्र अब्रूत ब्रूते इति ब्रूधातु अब्रूत इति तत्र लग्नकारः अस्ति पश्चात् सा पुत्रस्य निकटं गत्वा समीपं गत्वा अनन्तरं किं वदति सा अहं नितरां लज्जे लज्जते इति प्रथमपुरुषः अस्ति लज्जे अहं लज्जे
उत्तम उत्तमपुरुषे एकवचने लज्जे लज्जते लज्जे अहं लज्जे
नितराम् इति नितरां लज्जे इति क्रियाविशेषणमस्ति अव्ययमस्ति अहं पुत्रं प्राप्य भीरुं पुत्रं भीरु इत्युक्ते किमस्ति तत्र भीरुः इति
भीरुः यस्य तत्र धैर्यं नास्ति तत्र
धीरता नास्ति इति
शूरः नास्ति तत्र
शूरः
नास्ति
भवान् यावज्जीवं युध्येत इति चिन्तनं मम मनसि आवर्तत भवान् यावज्जीवं युध्येत इति अत्र युध्येत इति तत्र सम्भाव अहं चिन्तितवती आसीत् तत्
सत्यं सत्यं हा सम्भावना तत्र यावत् जीवम् इत्युक्ते जीवनस्य अन्तम् अन्तक्षणं पर्यन्तम् अन्तपर्यन्तं भवान् तत्र युध्येत तत्र युद्धं कुर्वन् एव भवति तत्र अन्तिमक्षण यावत् तत्र तत्र वीरगतिः एव तत्र क्षत्रियधर्म क्षत्रियस्य धर्म
वीरमरणमेव अस्ति अतः
हा वीरमरणमेव तत्र गौरवम् इति हा गौरवम् अतः तत्र भवान् तादृशमेव तत्र यावज्जीवं युध्येत इति एव मम चिन्तनं समीचीनं तत्र सम्भावनार्थे सम्भावना विधिलिङ्ग् लकारः किन्तु सम्भावनार्थे तत्र
चिन्तनं मनसि मम चिन्तनं मनसि अवर्तत
आसीत् इदानीं नास्ति इदानीं नास्ति नास्ति अतः
भवान् भीरुः इव पलायितः पलायनं कृतवान् इति अतः पलायितः इति अत्र
तत्र तप्रत्ययस्य तत्र गत्यर्थे धातुः अस्ति चेत् तत्र भवान् पलायितः समीचीनं महोदय
पुत्र त्वं वीरक्षत्रियकुले अजायथाः जायते इति अत्र अजायत इति अजायताः इति तत्र लङ्लकाररूपम् अस्ति
अजायताः
मध्यपुरुषे एकवचने त्वं वीरपुत्र अजायताः पलायनं न ते भूषणं पलायनं ते इत्यत्र षष्ठी भवति ते त्वं
तव
तव तव क्षम्यतां तव भूषणं नास्ति पलायनं
पलायनं तव भूषणं नास्ति तत्र भूषणमिति योग्यं नास्ति अपि पलायनम् इति भूषणं तयोः मध्ये तत्र विशेषभावः
आमां पलायनं भूषणम् आं सत्यम् अतः इदानीम् एव युद्धक्षेत्रं प्रति
निवर्तस्व लोट्लकार आत्मनेपदे धातु प्रतिगच्छतु प्रतिगच्छतु निवर्तस्व
प्रतिगच्छ त्वं प्रतिगच्छ इति मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम् इति वाक्यं स्मर इति मुहूर्तं क्षणकाल जीवति क्षणकाल अपि जीवति श्रेष्ठ जीवति चेदपि तद् समीचीनमस्ति न तु भीरुः इव धूमायितं चिरं धूमायितम् इति वाक्यं स्मर इति वदति
यतः तत्र भवान् उक्तवान् गतवर्गे तत्र तत्र लघु जीवनम् अस्ति चेत् लघुजीवनम् अस्ति चेत् अपि तत्र श्रेयकर तत्र श्रेयं जीवनम् अस्ति कृत्वा तत्र भीरु इव तत्र बहु बहुवर्षम् आसीत् चेत् अपि नास्ति इति अतः तत्र मुहूर्तं यावत् ज्वलितम् अस्ति अपि तत् श्रेयः अस्ति कस्य अपेक्षया तत्र चिरकालम् अग्नि नास्ति केवलं धूम एव अस्ति चेत् अपि तत्र प्रयोजनं
प्रयोजनमपि नास्ति
नास्ति इति समीचीनं महोदय इति वाक्यं
पराक्रमेण युद्धस्व इति पराक्रमेण त्वं युद्धस्व इति सा वदति
समीचीनं महोदय अस्तु अग्रे अपि करोति वा महोदय अग्रिमं
तदा सञ्जयः उक्तवान् अम्ब शत्रुसैन्यम् अस्माकं सैन्यस्य अपेक्षया बृहत् शक्तियुतं चास्ति अतः एव वयं पराजयामहि अत्र पराजयामहि इति अस्ति अत्र पराजयामहि तत्र
पुनः लङ्लकारः एव
लङ्लकार
यत्र एकारः अस्ति तत्र विधिलिङ्लकारः
आमाम् आम् अत्र परा इति अस्ति अतः
जयामहि इति अस्ति जये महि इति नास्ति, जयामहि इति अस्ति, अतः
जयामहि. आमां जयामहि. अग्रे बृहतः सैन्यस्य सङ्ग्रहं कृत्वा विजयं लप्स्ये. लप्स्ये इति अत्र लप्स्ये इति लट् लकारस्य अस्ति. अहं
सत्यं महोदय, सत्यं सत्यं,
लकारस्य अहं लप्स्ये.
लप्स्ये तत्र बृहतः सैन्यस्य, बृहान्स् तत्र बृहत् सैन्यं,
सैन्यम् अत्र बृहतः इति भवति. बृहत् इति अत्र नपुंसकलिङ्गे सैन्यम् इति अस्ति.
बृहतः सैन्यस्य सङ्ग्रहं कृत्वा,
विजयं लप्स्ये. अद्य यदि तत्र गच्छेयं तर्हि अवश्यम् एव म्रियेय इति अवदत्. अस्तु, यदि अद्य यदि तत्र गच्छेयं, यदि अहम् इदानीम् एव गच्छामि तर्हि मम मरणं भवेदेव इति, अवश्यम् एव म्रियेय इति. किमर्थं तेषां सैनिकं सैन्यं बृहत् अस्ति, अस्माकं तु इदानीं नास्ति तादृशसामर्थ्यम् इति वदति. इदानीं न गच्छामि, अगच्छेयम् इति अत्र गच्छेत् गच्छेयम् इति उत्तमपुरुषे एकवचने विधिलिङ्गकारः अस्ति.
विधिलिङ्गकारः पुनः प्रियेय, तत्र परस्मैपदी अपि म्रियेय, तत्रापि विधिलिङ्गकारः आत्मनेपदी, किन्तु तत्र प्रायशः महोदय तत्र म्रियेयति आत्मनेपदी, किन्तु तत्र प्रायशः गच्छेयम् इति तत्र विधिलिङ्गकारः सम्भावनार्थे यदि अहं गच्छामि
अवश्यमेव इति अत्र
अत्र तु विधि विधियर्थे विधियर्थे तत्र यदि अहं गच्छेयम् इति तत्र सम्भावना, तत्र अहं गच्छामि न जानामि, किन्तु यदि अहं गच्छामि तत्र किम् अवश्यं भवति, तत्र म्रियेय इति, तत्र तु विद्यर्थ विद्यर्थे इति वक्तुं शक्नुमः. समीचीनं महोदय, धन्यवादः इति अवदत्. अस्तु, इदानीम् अस्तु, अग्रे नरेश महोदय.
जजुला पुत्रस्य वचनं निराकुरत.
निराकुरत इति तत्र लकारः कः?
लङ्लकारः.
लङ्लकारः. कुरुते तत्र अकुरुत इति,
अकुरुत निरा उपसर्गः
इति उपसर्गः. निराकुरुत, समीचीनं महोदय.
सा पुनरपि पुत्र भवान् युद्धे विजयेत न वा. सा अवदत् पुत्र भवान् युद्धे विजयेत न वा.
विजयेत न वा, विजयेत न वा. विजयेत इति लकारः कः तत्र?
विजयेत विधिलिङ्ग.
विधिलिङ्ग अस्ति. समीचीनं महोदय. अपि तत्र यदि भवान् युद्धे तत्र जयं प्राप्नोति न वा इति तत्र महत्वं नास्ति खलु. यदि भवान् तत्र विजयं प्राप्नोति न वा, तत्र केन किं किमपि नास्ति. किन्तु निराकृतवती, वचनं निराकृतवती. निराकृतवती इत्युक्ते तत्र न स्वीकृतवती. न स्वीकृतवती.
उपसर्गः.
निर अकुरुत इति. सत्यं भगिनि. समीचीनं. निर अकुरुत.
चिन्तां मा करोतु.
अतः तत्र जयं प्राप्नोति न वा इति तस्मिन् विषये चिन्तनं मास्तु, चिन्तां मा करोतु.
युद्धक्षेत्रं गच्छतु. अत्र तु लोट्लकारः अस्ति. गच्छतु युद्धक्षेत्रं.
तत्र गच्छतु इति अस्ति, पुरुषः कः तत्र?
प्रथमपुरुष एकवचनं.
तत्र त्वम् अस्ति चेत् तत्र त्वं गच्छ इति. किन्तु अत्र पुत्र भवान् इति आरम्भे अस्ति, अतः प्रथमपुरुष एव तत्र, खलु?
राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन्.
हा, राजानं भवन्तं पलायितं दृष्ट्वा सैनिकाः किं कुर्वीरन् इति.
कुर्वीरन् विधिलिङ्ग अस्ति, प्रथमपुरुष बहुवचनं. कुर्वीरन्
हा, तत्र किं किं कर्तुं शक्नुवन्ति, किं कुर्वन्ति इति तत्र. हा,
किं कुर्वन्ति,
कुर्युः, किं कुर्युः इति तत्र विधिलिङ्गर्थे अस्ति, अतः तत्र करोति इति स्वीकुर्मश्चेत् तत्र किं कुर्युः. हा, किं कुर्वीरन् इति तत्र आत्मनेपदीरूपं कुरुते इति, तत्र किं कुर्वीरन्. हा, तत्र कुर्वीरन् इति अस्ति, तत्र एकवचने किम् अस्ति, कुर्वीरन् इति अस्ति. कुर्वीत एत नास्ति, तत्र विशेषरूपम् अस्ति कुर्वीत इति भवति. हा, कुर्वीत, कुर्वीयातां, कुर्वीरन् इति भवति. हा, अग्रे पश्यामः. हा, किन्तु महोदय तत्र एक एतत् प्रायशः अग्रे पश्यामः, किन्तु तत्र विजयेत इति विधिलिङ्गकारः इति उक्तवान्, समीचीनमेव, किन्तु तत्र जयते इति खलु, तत्र विजयते इति खलु, तत्र आत्मनेपदी धातु लट् लकारे. हा, विजयते, विजयते, तत्र किं भवति, विजयेत इति विधिलिङ्गकारः. समीचीनम्. इदानीं तत्र विजयते तद्भवति विजयेत, एकारः मध्ये अस्ति खलु. हा, अतः विधिलिङ्गकारः. इदानीं तत्र लङ्लकारे किं भवति,
लङ्लकारे वि योगा अजयत.
हा, समीचीनं, व्यजयत, व्यजयत, समीचीनं महोदय. हा, अतः रूपं दृष्ट्वा एव तत्र, तत्र यत्र उपसर्ग अस्ति तत्र रूपसाम्यं प्रायशः नास्ति. यथा वयं पूर्वं दृष्टवन्तः लब् धातोः लङ्लकारः अपि विधिलिङ्गकारः साम्यम् अस्ति इति उक्तवन्तः, किन्तु सत्यं, किन्तु उपसर्गः अस्ति चेत् तत्र साम्यं न सर्वदा भवति. तत्र व्यजयत् इति अस्ति, किन्तु लङ्लकारे, किन्तु विधिलिङ्गकारे विजयेत इति अस्ति. हा, अग्रे महोदय.
ते किं कर्तव्यता विमूढाः जायेरन्.
हा, ते किं भवेयुः, जायेरन् इत्युक्ते जायते, हा इति तत्र जायेरन् इति अस्ति. रन् इति पश्यामश्चेत् तत्र विधिलिङ्गकारः खलु, बहुवचनं जायेरन्. अत्र तत्र भवेयुः, किं भवेयुः, तत्र ते किं कर्तव्यता विमूढाः भवेयुः. तत्र किं कर्तव्यविमूढाः अपि तत्र रूपमस्ति, किं कर्तव्यता विमूढाः, तत्र रूपद्वयं, तत्र ता इति मध्ये अस्ति भाववाचकः, तद् भवति न वा, तत्र अर्थभेदः नास्ति. अतः तत्र किं कर्तव्यविमूढाः अथवा किं कर्तव्यता विमूढाः, समानार्थकपदं, किं कर्तव्यम् इति तस्मिन् विषये विमूढाः सन्ति. विमूढः नाम ज्ञानं नास्ति तेषां, ज्ञानं नास्ति. अतः तत्र किं कर्तव्य, किं कर्तव्य, किं कर्तव्यम् इति ते न
जानन्ति.
तादृशी परिस्थितिः भवति. अतः तत्र किं कर्तव्यता विमूढाः ते भवेयुः, ते जायेरन्, तत्र विशेषणं, तत्र बहुव्रीहिसमासः, तत्र विमूढाः भवन्ति, किं कर्तव्यविमूढाः भवन्ति इति, तत्र न बहुव्रीहि अथवा अन्यदपि, तत्र विमूढः, हा, प्रायशः बहुव्रीहि नास्ति, क्षम्यताम्. हा, तत्र, हा, तत्र किं कर्तव्यता इति विषये विमूढाः ते भवन्ति. अग्रे.
अतः भवान् आदौ विकीर्णस्य सैन्यस्य एकत्रीकरणं कुर्वीत.
हा, तत्र विकीर्णस्य सैन्यस्य, तत्र सैन्यम् एकत्र अस्ति वा इदानीं नास्ति खलु?
इदानीं तु एकत्र नास्ति.
हा, तत्र राजा पलायितवान्, पलायितः. तत्र राजा नास्ति चेत् तत्र सैन्यं किं, तत्र एकं दलम् अत्र गच्छति, अन्यत्र अन्यदलम् अन्यत्र गच्छति, अतः तत्र
विकीर्णं भवन्ति.
हा, विकीर्णं सैन्यम् अस्ति इदानीम्. अतः विकीर्णस्य सैन्यस्य एकत्रीकरणं करोतु इति. हा,
पुनः कुर्वीत विधिलिङ्ग अस्ति प्रथमपक्षे बहुवचन, एकवचनं.
कुर्वीत इति एकवचने, कुर्वीरन् इति बहुवचने, द्विवचने किं भवति?
कुर्वीतायां,
कुर्वीयातां, कुर्वीयातां मध्ये याक. समीचीनं महोदय, कुर्वीयातां, समीचीनं. हा,
सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपान् च जानीयात्, जानीयात्. सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपान् च जानीयात्.
हा, तत्र महोदय, तत्र विकीर्णस्य सैन्यस्य इति स्थाने अन्यदपि वक्तुं शक्नुमः, तत्र प्रसारितं सैन्यम् इति.
प्रसारितं,
हा, प्रसारितं. तत्र वयं पूर्वमपि तत्र सर्वत्र प्रसारितं भवति, तत्र किं, तत्र सत्यजितः इति कथायां पठितवन्तः खलु, तत्र सत्यजितः इति कथा अस्ति, तत्र एकनिमिषः, तत्र किं प्रसारितम् आसीत् इति, तत्र सत्यं, सत्यं महोदय. हा, तत्र प्रसृतं, प्रसृतं भविष्यति. हा, प्रसृतं, सत्यं, धन्यवादः महोदय, प्रसृतं. हा, इदानीं तत्र प्रसृतं, किन्तु तत्र प्रसारितं, तत्र प्रसृतं तत्र निच् नास्ति, प्रसारितं निच् अस्ति. हा, किन्तु प्रायशः अत्र प्रसृतमपि तत्र वक्तुं शक्नुमः, प्रसृतं सैन्यं खलु महोदय. हा, प्रसृतं प्रसारितं द्वयमपि साधु अस्ति अत्र. अस्तु महोदय, तत्र सिन्धुराजस्य सैन्ये विद्यमानान् दोषान्
जानीयात्,
जानीयात्. पुनः महोदय, तत्र जानीयात इति तत्र लकारः कः? विधिलिङ्ग एव अस्ति. हा, विधिलिङ्ग एव अस्ति, सत्यं. तत्र कुर्वीत इति आसीत् खलु महोदय, तत्र हा तादृशमेव तत्र जानीयात इति. हा, अतः तत्र विशेषरूपम् अस्ति, अतः तत्र एकारः दृष्ट्वा न वक्तुं शक्नुमः, तत्र एकारः अत्र नास्ति, ईकारः, दीर्घ ईकारः अस्ति. हा, यदि तत्र लङ्लकारः अस्ति तत्र, यथा तत्र कुर्वीत इति विधिलिङ्लकारः, तत्र अकुरुत इति लङ्लकारः, उकारः तत्र अस्ति. हा, गीताञ्जलि भगिनी, प्रश्नः कः भगिनि?
तत्र कुर्वीत इति पदस्य एव इत्युक्ते विधि अस्ति चेत्,
विधि, विधि एव भगिनि, एतत् करोतु इति विध्यर्थे.
किन्तु कुर्यात् विधि अस्ति न महोदय?
परस्मैपदि करोति, करोति
इति. समीचीनप्रश्नः भगिनि, समीचीनप्रश्नः. तत्र कुर्यात् परस्मैपदि, कुर्वीत आत्मनेपदीरूपम्.
अपि च जानीयात् अपि,
जानीयात, हा, जानातु इति स्थाने एतत् तत्र किमस्ति, जानीयात इति, तत्र जानीते, जानीते इति.
इत्युक्ते आत्मनेपदी एव न?
आत्मनेपदी, आत्मनेपदी एव, आत्मनेपदी
एव, आत्मनेपदी रूपमेव.
अतः तत् हा, अपि तत्र
अकार अस्ति, तत् आत्मनेपदी रूप एव भवति, तत् एव अस्ति, परस्मैपदी पठेत् इति, अत्र एव भवति.
सत्यं सत्यं हा तत्र सर्वत्र सत्यं महोदय परस्मैपदी धातूनां तत्र अन्ते तत्र इत् इत्यत्र कुर्यात् हलन्तवर्ते अत्र तु अजन्त तकारः अस्ति सत्यं समीचीनं महोदय हा अपि तत्र जानीयात इति नरेश महोदय जानीयात इति अस्ति एकवचने द्विवचने किं भवति महोदय ऊहं कर्तुं शक्नोति वा
जानीयातां
हा जानीयातां हा अपि बहुवचने
जानीये जानीरन्
हा कुर्वीरन् जानीरन् समीचीनं महोदय हा कुर्वीरन् जानीरन् लभेरन् हा तादृशमेव अस्ति महोदय हा समीचीनम् अतः तत्र एकत्रीकरणं करोतु अथवा कुर्यात् तदनन्तरं सिन्धुराजस्य सैन्ये विद्यमानान् दोषान् लोपान् तत्र भेदः कः दोषाः लोपाः दोषः अपि लोपः भेदः कः तत्र किमर्थं द्वयमपि दत्तमस्ति तत्र
लोपः दोषः तु दोषः अस्ति लोपः
लोप इत्युक्ते यद् नास्ति तावत् नाम तत्र प्रायशः हा हा सति महोदय दोषः यदस्ति किन्तु असम्यक् अस्ति अपि लोपः यद् भवितव्यं किन्तु यद् नास्ति तद् लोपः अतः तत्र द्वयमपि यद् अस्ति किन्तु समीचीनं नास्ति यद् नास्ति किन्तु तद् भवेत् यदस्ति चेत् हा सम्यक् भवति तद् अतः तत्र दोषः दोषानपि तत्र जानातु लोपानपि जानातु इति हा अग्रे
उत्तमगुणस्य एव तत्र लोपः इति वदामः लोपः अस्ति इति उत्तमगुणस्य एव नास्ति चेत् लोपः इति वदामः व्यवहारे
तादृश सत्यं महोदय सत्यं सत्यं हा सत्यं सत्यं हा
कोऽपि न वदति सत्यं
न वदामः न वदामः सत्यं महोदय हा अतः तत्र यत् उत्तमः हा यत् उत्तमः उत्तमः विषयाः ये सन्ति येषां लोपः अस्ति चेत् तद् जानातु सत्यं महोदय हा समीचीनं हा
व्यवहारे तादृश
सत्यं सत्यं महोदय
शत्रवः राजानः ये सन्ति तान् अपि
आह्वयेत् तत्र आह्वयेत् इति तत्र परस्मैपदी धातुः अस्ति आह्वयेत्
सिन्धुराजस्य शत्रवः राजानः आह्वयेत्
हा तत्र आह्वयेत् इति तत्र लकारः कः तत्र
विधिलिङ्गकारः परस्मैपदी
हा विधिलिङ्गकारः तत्र विधिलिङ्गकारः
आह्वयति
आह्वयति विधिलिङ्ग आह्वयेत्
सत्यं महोदय सत्यं हा तत्र विधिलिङ्गकारः अस्ति तत्र आह्वयेत् हा तत्र ह्वयेत् इति अस्ति हा परस्मैपदी हा परस्मैपदी अस्ति किन्तु तत्र अत्र धातु तत्र ह्वे धातुः तत्तु उभयपदी अस्ति किन्तु तत्र अ आ इति अस्ति चेत् तत्र प्रायशः केवलं परस्मैपदी इति खलु महोदय रघुपतिमहोदय जानाति वा तत्र
महोदय
ह्वयति तत्र ह्वे धातुः किन्तु तत्र ह्वे धातुः उभयपदी अस्ति किन्तु आह्वयति इति तत्र केवलं
परस्मैपदी एव अस्ति न जाने महोदय तत्र तादृश बहूनि सूत्राणि सन्ति कुत्रस्थलेषु यद् रूपद्वयं न भवति एकस्य एव भवति रूपम् इति निचिप्रयोगे अपि इति अस्ति
ओ अस्तु अस्तु महोदय किन्तु आह्वयते अपि अस्ति महोदय आह्वयते अपि अस्ति इदानीमेव दृष्टवान् अतः तत्र आह्वयते आह्वयति द्वयमपि अस्ति अतः तत्र महोदय तत्र आह्वयेत् इति स्थाने तत्र आह्वयेत् इति अपि वक्तुं शक्नुमः महोदय तत्र
आह्वयेत
तत्र आह्वयति आह्वयति इति परस्मैपदीरूपम् आह्वयते इति आत्मनेपदीरूपं द्वयमपि अस्ति अतः तत्र अत्र तु परस्मैपदीरूपम् एव स्वीकृतं किन्तु आत्मनेपदीरूपमपि वक्तुं शक्नुमः किन्तु तत्र राजानः ये सन्ति तान् तानपि आह्वयतु अथवा आह्वयेत् तत्र इति अस्ति तत्र आह्वानं कुर्यात् आह्वानं कुर्यात् तत्र कुर्वीत अग्रे
अग्रे तदनन्तरं तेन सह युध्येत
तेन सह इत्युक्ते तत्र सिन्धुराजायः अस्ति सिन्धुराजेन पुनः युद्धं युध्येत
सिन्धुराजस्य राजे अपि शत्रवः
तेन इत्युक्ते केवलं सिन्धुराजेन यतोहि तत्र तस्य इति अस्ति खलु महोदय तत्र आरम्भे किम् अस्ति महोदय तत्र सिन्धुराज्यस्य सैन्ये विद्यमानान् दोषान् लोपान् च जानीयात् खलु इदानीं तस्य इति तस्य इति कस्य
परन्तु तस्य शत्रवः राजानः ये सन्ति
आह्वयतु
तेन सह युध्येत
किन्तु तेन इति तत्र एकवचने अस्ति राजानः इति तत्र तु बहुवचने अस्ति तत्र तत्र तेन सह युद्धम् इत्युक्ते तत्र तत्र किं पक्षद्वयम् अस्ति यदि वयं वदामः तेन सह युद्धं कृतवान् तत्र अर्थः भवति तत्र यः तत्र एषः राजा अस्ति सिन्धुराजेन सह युद्धं कृतवान् इत्युक्ते तत्र सिन्धुराजा अन्यपक्षे अस्ति इति विरुद्धपक्षे विरोधपक्षे अस्ति इति अर्थः न तु तत्र वयं साधारणतया किं वदामः तत्र हस्तेन खादामः तत्र तु तत्र हस्तः तत्र माध्यमम् अस्ति इदानीं तत्र राजा तत्र शत्रवः तत्र सिन्धुराज्यस्य शत्रवः सन्ति किन्तु ते अपि सन्ति किन्तु तेन सह यत्र अस्ति तत्र विरुद्धपक्षं सूचयति अतः सिन्धुराजेन सह युद्धम् इति एव भवति महोदय
भवान् अवश्यं विजयेत इति तं प्रोत्साहितवती
इति पुत्रं प्रोत्साहितवती का प्रोत्साहितवती विदुला धीरमाता विदुला प्रोत्साहितवती तस्याः पुत्रं प्रोत्साहितवती अवश्यं विजयेत तत्र विद्यर्थे विजयेत तत्र संशयः नास्ति भवान् एव विजयं प्राप्नोति इति समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनी करोति वा अग्रे
श्रूयते वा मम
श्रूयते भगिनि श्रूयते भगिनि
मातुः वचनेन सञ्जयः जागरितः यद् माता उक्तवती तस्याः वचनेन
राजा सञ्जयः पुत्रः सञ्जयः जागरितः तत्र जागरितवान् तत्र अस्तु ओ तत्र वचनेन इति तत्र कारणतृतीया तत्र एतेन कारणेन इति वदामः खलु तत्र वचनेन एषः जागरितः अग्रे
सः असामान्यं धैर्यम् अलभत अलभत विधिलिङ्ग
न अलभत इति लङ्लकारः यत्र यत्र अकारः आदौ अस्ति तत्र तु लङ्लकारः मध्ये एकारः अस्ति चेत् विधिलिङ्लकारः
अवर्धत लङ्लकारः अवर्धत
वर्धत तत्र लट्लकररूपं किं
वर्धते
वर्धते इदानीं तत्र तत्र अधोभागे तत्र लब् धातोः रूपाणि सन्ति खलु भगिनि तद्दृष्ट्वा अवर्धत इति पदस्य रूपाणि वदतु न वर्धत अवर्धत अवर्धत इति अवर्धत अवर्धत विधिलिङ्ग् नास्ति लङ्लकारः एव अस्ति खलु इति अस्ति समीचीनं किन्तु तदेव पुनः तत्र वर्धते इति इति रूपं भवति समीचीनं भगिनि अग्रे
सः उत्थाय मातरं प्रणम्य अम्ब धीरमातुः भवत्याः वचनैः अहं नूतनः मनुष्यः अजाये
तत्र अजाये इति अस्ति तत्र अजाये इति किम् अस्ति तत्र अजाये
लङ्लकारः उत्तमपुरुषे एकवचनं
लङ्लकारः तत्र प्रथमपुरुष एकवचने किम् अस्ति
जायेत अजायत
अजायत समीचीनम् अजायत किन्तु उत्तमपुरुषे एकवचने अजाये इति अस्ति तत्र वयं दृष्टवन्तः खलु तत्र प्रायशः भगिनी भवती तत्र नासीत् तत्र लब् धातोः रूपाणि पश्यन्तु तत्र सर्वत्र अकारः अस्ति आदौ किन्तु एकारः मध्ये कुत्र अस्ति तत्र अलभ्येताम् इति खलु तत्र एकारः अस्ति खलु द्विवचने उत्तमपुरुषे मध्यमपुरुषे एकारः द्विवचने अस्ति अपि उत्तमपुरुषे एकारः अस्ति अन्ते तत्र अलभे इति अतः तत्र अजाये इति एकारः अस्ति अग्रे
मम पराक्रमं लोकताम्
लोकताम् इति लोकताम् इत्युक्ते
लोट् लकारः
लोकताम्
लोकताम्
लोकते इति लोकते इति पदस्य लट् लकारः लोकतां समीचीनं
लोट् लकारः अद्य अवश्यं विजयं लभेय
लभेय इति विधिलिङ्ग् अस्ति तत्र लभेय अहं लभेय अद्य अहम् अवश्यं विजयं लभेय
इति उक्त्वा युद्धार्थं प्रतिष्ठत
न प्रातिष्ठत प्रातिष्ठत इति लकारः कः
प्र उपसर्गपूर्वम् अतिष्ठत
अतः लकारः विधिलिङ्ग् वा अथवा लङ्लकारः वा
लङ्लकारः
प्रायोगः अतिष्ठत समीचीनं भगिनि प्रातिष्ठत इति समीचीनं तत्र अस्तु अग्रे
पठामि वा
पठतु भगिनि
सञ्जयः मातृवचनानुसारं शीघ्रमेव सैन्यं सज्जीकृत्य झटिति शत्रोः सैन्यस्य उपरि आक्रमणम् अकुरुत
अकुरुत इति रूपं किमस्ति
लङ्लकारः
लङ्लकारः कुरुते अकुरुत अकुरुत समीचीनं अग्रे तत्र अवगतं वा वाक्यस्य अर्थः तत्र किमस्ति सञ्जय मातृवचनानुसारेण शीघ्रमेव सैन्यं सज्जीकृत्य तत्र सैन्यं विकीर्णम् आसीत् किन्तु एकत्रीकृत्य सैन्यम् एकत्रीकृत्य तत्र सज्जीकृत्य इति तत्र सज्जीकृत्य इति तत्र सज्जीकरोति इति अस्ति सज्जीकृत्य सज्जीकरोति शुक्लीकरोति इति अस्ति तत्र सज्जीकृत्य इति सज्जीकरोति तत्र यत्र करोति अस्ति तस्मात् प्राक् तत्र किमपि तत्र शुक्लीकरोति तत्र प्रत्ययः अस्ति तत्र छ्वि प्रत्ययः इति मन्ये तत्र रघुपतिमहोदय जानाति वा महोदय एतत् एव अस्ति खलु छुयि खलु तत् अस्तु छुयि प्रत्ययः तत्र अतः तत्र नाम विचित्रमस्ति, अतः सुलभतया मनसि स्थापितं भवति तत्र छुयि इति. छुयि
भवति, कृ अपि धातो भू धातो योगे भवति, योगे एव भवति तत्र. कृ करोति, सज्जीकरोति,
सज्जीकरोति. सत्यं महोदय. अतः तत्र सज्जीकृत्य, अतः तत्र सज्जीकृत्य तत्र सर्वं एकत्रीकृत्य, तत्र एकत्रीकरणम् एकत्रीकृत्य झटिति. झटिति इत्युक्ते तत्र
तत्रापि एकत्री एकत्रीकृत्य.
एकत्रीकृत्य, सत्यं महोदय. एकत्रीकृत्य तत्रापि
बहुत्र तस्य प्रयोगः भवति.
भवति भवति. समीचीनं महोदय. अस्तु लक्ष्मी भगिनी, अतः तत्र सज्जीकृत्य इति तत्र छुयि प्रत्ययः. झटिति इत्युक्ते लक्ष्मी भगिनी,
झटिति
तत्क्षणमेव, तत्र तत्र विलम्बः नास्ति तत्र. तत्र सज्जीकृतवान् तदनन्तरम् एव तत्र किं कृतवान्? शत्रोः
सैन्यस्य उपरि आक्रमणम् अकुरुत.
कृतवान् तदनन्तरं
विजयोन्मत्तः सिन्धुराजः तस्य सैनिकाः च एतेन आक्रमणेन व्यस्मयन्त.
तत्र
वि उपसर्गपूर्वं
समीचीनं भगिनि. विस्मयते इति, विस्मयते, स्मयते इति धातु, उपसर्गरहितधातु स्मयते. इदानीं विस्मयते, तत्र विस्मयते, किन्तु अत्र व्यस्मयन्त इति अस्ति, अतः तत्र वियोगः अस्मयन्त अलभन्त अस्मयन्त, वियोगः अस्मयन्त व्यस्मयन्त. स्मयते इत्युक्ते अर्थः कः?
स्मयते
तत्र अस्मयति न, व्यस्मयते इति तत्र विस्मयते. विस्मयते इति पदस्य विस्मयते इत्युक्ते किम् अर्थः कः? आश्चर्यम्, आश्चर्यं. तत्र आश्चर्यं तत्र तेषां तत्र किम् एतत् सत्यं वा एतद् अभवत् वा इति, तत्र कथम् एतत् अभवत् इति तेषाम् आश्चर्यम् आसीत्. अतः तत्र विस्मयं, विस्मय व्यस्मयन्ते अथवा विस्मयन्ते इति.
सञ्जयस्य सैनिकाः
किमर्थं ते व्यस्मयन्त? यतोहि तत्र सः शीघ्रतया एतत् सर्वं कृतवान् खलु. ते चिन्तितवन्तः सः तु तत्र पराजितः अस्ति, अपि तत्र युद्धं त्यक्त्वा तत्र सः पलायितवान्, अतः तत्र तत्र विजयोन्मत्तः. विजयोन्मत्तः इत्युक्ते
सः विजयं प्राप्तवान्
तेन कारणेन उन्मत्तः अभवत्. अस्तु, अहं विजयं प्राप्तवान् अस्मि इति तदेव मनसि आसीत् तस्य मनसि, अतः तत्र उन्मत्तः अभवत्. तत्र तेन सन्तुष्टः आसीत् सः विजयं प्राप्तवान् इति. किन्तु तादृश सिन्धुराजः अपि तस्य सैनिकाः च एतेन आक्रमेण ते व्यस्मयन्त. अग्रे
तत्र स्मि धातु वा?
स्मयते इति रूपम् अस्ति भगिनि.
स्मयते
इति क्रियापदं प्रायश स्मि प्रायश स्मि एव अस्ति इति भगिनि इति चिन्तयामि भगिनि.
आत्मने पदि रूपम् आवश्यकं
अवस्मयपदि एव अस्ति खलु, आत्मनेपदि एव अस्ति. स्मयते
स्मयते भगिनि, स्मयते इति रूपं
वि इति उपसर्ग इति आश्चर्य अर्थः भिन्नः भवति. स्मयते इति स्मैल् इति तादृश अस्ति. स्मैल् स्मैल् इति
किं तत्र
स्मि धातुः विस्मि
वि न वि इति उपसर्ग
उपसर्गः धातुः इति स्मि सत्यं.
आमाम्
अर्थभेदः जायते
सत्यं.
वि इति उपसर्गेण अर्थभेदः जायते, आश्चर्य अर्थपरिवर्तनं भवति.
केवलं स्मयते इत्युक्ते तत्र हसति इति अर्थः.
स्मैल्
स्मैल्
हसति इत्युक्ते
तत्र मन्दहासः स्मयते इति तत्र
किन्तु अत्र तु इत्युक्ते
विस्मयं तत्र विस्मयं
विशेषेण तत्र अर्थपरिवर्तनमेव
परिवर्तनं भवति तत्र विस्मयं तत्र विस्मयम् इति तत्र तत्र नामपदमेव अस्ति तत्र विस्मयं तत्र आश्चर्यम् एतत् अभवत् वा तत्र विस्मयं सर्प्रैस् इति अर्थः विस्मयम् अस्तु लक्ष्मी भगिनी अग्रे
सञ्जयस्य सैनिकाः
अपूर्वशौर्येण
अयुध्यन्त
अयुध्यन्त इति लकारः कः
लङ्लकारः बहुवचने
तत्र एकवचने किम् अस्ति अयुध्यत अयुध्येताम् अयुध्यन्त समीचीनं तत्र अपूर्वशौर्येण तत्र अपूर्वशौर्येण इत्युक्ते तत्र पूर्वं न दृष्टं पूर्वं तादृशं शौर्यं न दृष्टम् अतः अपूर्वं तत्र नूतनम् एतादृशं पूर्वं न दृष्टम् अपूर्वम् अतः तत्र अपूर्वशौर्येण अयुध्यन्त विजयम्
अलभन्त
तत्र अलभन्त इति अस्ति कर्तृपदं किं के अलभन्त
कर्तृपदं विजयम् अलभन्त च सैन्यं
न सैनिकाः अयुध्यन्त विजयम् अलभन्त च सैनिकाः एव अस्तु अन्तिमवाक्यं
विजयश्रीलालितं पुत्रं विदुला यथोचितं स्वागतीकृतवती
पुनः तत्र चुयि प्रत्ययः स्वागतं कृतवती अथवा एकत्रीकृत्य स्वागतीकृतवती चुयि प्रत्ययः तस्य स्वागतं
कुत्र आयाति
किं भगिनि
समासः वा
न तत्र च्वि इति प्रत्ययः अस्ति भगिनि
तद्धितप्रत्ययः अस्ति अत्र किमस्ति अभूतपूर्वस्य विकारस्य सम्पादनं क्रियते चेत् तत्र किं पूर्वं नास्ति चेत् तत्र करोति इदानीं स्वागतं नास्ति इदानीं स्वागतं करोति शुक्लीकरोति इति अस्ति खलु शुक्लं नास्ति आसीत् इदानीं तत्र प्रक्षालनं कृत्वा अथवा किमपि अशुक्लं शुक्लीकरोति अशुक्लं शुक्लं करोति इति अस्ति शुक्लीकरोति अस्वच्छ अस्ति इदानीं स्वच्छीकरोति अस्वच्छस्य स्वच्छता करोति स्वच्छीकरोति
समीचीनं
तादृश अर्थे भवति इति कृ अपि भू धातो अस् धातोः एतेषां योगे भवति तत्र च्वि इति प्रत्ययः भवति इति
तत्र सत्यं महोदय तत्र भवति इति तत्र उदाहरणं स्मरति वा महोदय
भवति इति आं महोदय शुक्ली भवति इति भवति
शुक्ली भवति अपि
शुक्ली स्यात् शुक्ली भवति इति रूपत्रयमपि भवति इति अस्ति तत्र तेषाम् एव योगे एव भवति तत्र दीर्घं भवति केवलं तत्र किमस्ति महोदय च्वि इति प्रत्ययस्य सर्वापहारिप्रत्ययः अस्ति लोपः भवति परन्तु तत्र ईत्वं भवति च्वीति प्रत्ययः न भवति एव शुक्ली इति तत्र वि इति वकारः अस्ति परन्तु लोपः भवति
तिष्ठति सत्यं धन्यवादः महोदय
प्रथम पङ्क्तिशः महोदय तत्र भवान् उक्तवान् राज जकारान्त प्रातिपदिकम् अस्ति तेन राजेन आयाति वा तत्र सिन्धुराजेन
तेन सिन्धुराजेन तेन सिन्धुराजेन इति
न राजेन इति राजा
तु नकारान्तपदम् अस्ति खलु भगिनि
तत्तु नास्ति अत्र कीदृश प्रातिपदिकमस्ति राज् अस्ति वा
कुत्र भगिनि कुत्र
राजन्नेव अस्ति समासे तत्र लोपः भवति अकारः भवति अत्र समासे भिन्नभिन्नसूत्राणि सन्ति खलु अतः सिन्धुराज् सिन्धुः राज्
राजा सिन्धुः राजा सिन्धुः राजा इति
प्रायशः अस्ति तत्र लोपः भवति तत् तादृशः अस्ति तत्र अन्यकार्याणि भवन्ति सिन्धुराजा यथा पति इति खलु नृपति इति ईकारान्त भवति पतिशब्दः भिन्नः अस्ति पत्युः इति वदति अत्र परन्तु पति इति सामान्य
कविशब्दवत् भवति
आमाम् इदं कविशब्दवत् यदा समासः भवति नरपतिः रघुपतिः इति किमपि अन्य पति इति परन्तु पतिशब्दः भिन्नमस्ति तथैव अत्रापि राज इति यत् समासः भवति अकारान्त एव भवति आमामां समासस्य एव अत्र सूत्राणि सन्ति अतः
समीचीनं महोदय धन्यवादः महोदय अथ भगिनी प्रश्नः प्रश्नस्य उत्तरं प्राप्तं खलु इदानीं अस्तु
अतः यत्र राजन् इत्यस्य किञ्चित् क्लिष्टः अस्ति खलु अतः यदा राजस्य महाराज इति कृत्वा आकारन्त एव व्यवहारे प्रयोगः सरलः भवति
तत्र अभ्यासपुस्तके अभ्यासपुस्तके केवलं
संस्कृतम् इति
महाराज एव अभ्यासपुस्तके केवलं महाराज एव कुर्मः न तु राजन् इति
राजन् इत्यस्य किञ्चित् क्लेशः राज्ञः
इति हा सत्यं
तादृश भवति खलु षष्ठी विभक्ति अपि च द्वितीय बहुवचने राज्ञः एव अस्ति अत्र तत्रापि क्लेशः भवति
धन्यवादः तत्र विजयश्री लालितं पुत्रं
विदुला
तत्र विजयश्री प्राप्तवान् तत्र लालितं पुत्रं विदुला यथोचितं यथोचितं यत उचितमासीत् तादृश स्वागतं सा कृतवती यथोचितं स्वागती कृतवती इति अस्ति समीचीनं भगिनि अस्तु अतः तत्र मूलविषयः अस्मिन् पाठे अस्ति तत्र आत्मनेपदी धातूनां लङ्लकारः विधिलिङ्लकारः तयोः मध्ये तयोः लकारयोः मध्ये साम्यम् आधिक्येन साम्यम् अस्ति अतः तयोः एकत्र एव तत्र अस्मिन् पाठे द्वयोः अपि तत्र अभ्यासं कुर्मः इदानीम् अग्रे अस्तु इदानीम् अग्रे सरामः तत्र
एकमपि स्पष्टीकरोति वयं बहुत्र
सत्यं स्पष्टीकरोति समीचीनं
तदेव
सत्यं सत्यं
जानीमः परन्तु तस्य मूल न जानीमः
स्पष्टीकरणं समीचीनं महोदय धन्यवादः समीचीनमस्ति अस्तु तर्हि इदानीं तत्र सूर्यकुमारी भगिनी इदानीं तत्र इदानीं तत्र लब् धातोः रूपाणि तत्र लङ्लकाररूपम् अपि तत्र विधिलिङ्लकाररूपम् एकवारं पठति वा भगिनि लब् धातोः अधोभागे अस्ति अलभत इति
अलभत लङ्लकार आत्मनेपदि अलभेताम् अलभन्त मध्यम मीन् द्वितीय तृतीय
न मध्यमपुरुषः इदानीं मध्यमपुरुषः अलभताः
अलभताः अलभेताम् अलभध्वम् उत्तमपुरुषः अलभे अलभावहि अलभामहि
तत्र सर्वत्र अकारः आदौ अस्ति अपि कुत्र एकारः अस्ति अत्र मध्ये एकारः लभे इति कुत्र कुत्र अस्ति मध्यम तत्र उत्तम प्रथमपुरुषे प्रथमपुरुषे द्विवचने
मध्यमपुरुषे द्विवचने उत्तमपुरुषे एकवचने
एकवचने समीचीनं इदानीं तत्र लब् धातोः विधिलिङ्लकार लकाराणि पठतु लकारं पठतु रूपाणि पठतु
विधिलिङ् लभेत लभेयातां लभेरन् मध्यमपुरुषः लभेताः लभेयाथां लभेध्वम् उत्तमपुरुषः लभेय लभेवहि लभेमहि
इदानीं तत्र लभेवहि लभेमहि इति अस्ति लङ्लकारे किम् अस्ति
लभावहि
अलभावहि अलभामहि साम्यमस्ति खलु अपि तत्र लभेत हा तत्र मध्ये एकारः अस्ति अपि आदौ अकारः अस्ति अपि तत्र अलभत लभेत इति अस्ति हा अतः तत्र अलभताः लभेताः इति तत्रापि लभद् अलभध्वं लभेध्वं तत्र केवलं प्रथमपुरुषे बहुवचने तत्र लभेरन् इति अस्ति अत्र अलभन्त इति अस्ति अपि अत्र विधिलिङ्गकारे यकारः कुत्र कुत्र आगच्छति तत्र लभेया कुत्र कुत्र आगच्छति यकारः प्रथमपुरुषे
प्रथमपुरुषे द्विवचने मध्यमपुरुषे द्विवचने उत्तमपुरुषे पुरुषे एकवचने
हा यत्र यकारः अस्ति विधिलिङ्गकारे तत्र एव तत्र एकारः अस्ति लङ्लकारे खलु हा एतत् स्मर्तव्यं तावदेव अतः तत्र आधिक्येन साम्यम् अस्ति सम्पूर्णतया साम्यम् इति न किन्तु आधिक्येन आधिक्येन साम्यम् अस्ति अस्तु समीचीनं
प्रथमपुरुषे बहुवचनं
हा बहुवचनं तत्र तु साम्यं नास्ति समीचीनं भगिनि हा अस्तु इदानीं तत्र तत्र प्रायशः प्रथम अभ्यासः पूर्वमेव कृतवन्तः किन्तु कुर्मः तत्र यतोहि तत्र हा लाभः अस्ति अतः भगिनी भवती एव तत्र शोभते इति तत्र हा लङ्लकाररूपाणि एकवारं वदतु भगिनि
सेवते
न न शोभते प्रथमाभ्यासः अग्रिमे पुटे पेज् 103 मध्ये पेज् 103 मध्ये अभ्यासः अस्ति खलु प्रथमाभ्यासः
प्रथमाभ्यासः सूचनानुसारेण अतः दत्तानां धातूनां रूपाणि लिखत पठत च उदाहरणमस्ति प्रथमपुरुषः अशोभत
शोभते इति लङ्लकार तस्य लङ्लकाररूपाणि
लङ् अशोभत आत्मनेपदी लङ्लकार प्रथमपुरुषे एकवचनं
इदानीम् अन्यत् अन्यानि रूपाणि वदतु तत्र
अशोभत अशोभताम्
अशोभेताम्
अशोभेताम् अशोभन्तम्
मध्यमपुरुषे
मध्यमपुरुषे अशोभताः
अशोभेताम् हा भवती एव उक्तवती खलु तत्र एकारः द्विवचने भवति इति अतः तत्र अशोभेथाम्
अशोभध्वम्
हा
उत्तमपुरुष अशो अशोभ
न न अशोभे खलु पुनः एकारः अस्ति खलु
अशोभे
अशोभावहि
अशोभावहि अशोभामहि
हा पुनः तत्र अशोभत अशोभेथाम् अशोभन्त अशोभताः अशोभेथाम् अशोभध्वम् अशोभे
अशोभावहि
अशोभामहि समीचीनं भगिनि हा इदानीं तत्र सेवते अग्रे तत्र सेवते इति तस्य विधिलिङ्गकरः
सेवते
विधिलिङ्गकर उपरि अस्ति तत्र
सेवते विधिलिङ्ग सेवेत सेवे सेवेयाथां सेवेरन्
हा सेवेरन् समीचीनं हा
सेवेताः सेवेयाथां सेवेध्वं सेवेय सेवे सेवेवहि सेवेमहि
सेवेमहि समीचीनं भगिनि हा अस्तु इदानीं तत्र हा तत्र अग्रिमपुटे तत्र किं तत्र लभते इति अस्ति अस्तु हा तत् हा लभते लभते इति किम् अस्ति विधिलिङ्गकरः सेवते इति कृतवती इदानीं तत्र
विधिलिङ्ग लभेते
लभेत
लभेत लभेयातां लभे लभेरं लभे
लभेताः
लभेताः लभे
यातां
लभेध्वं लभेय लभेवहि लभेमहि
लभेवहि लभेमहि समीचीनं भगिनि हा बहु समीचीनम् अस्ति अस्तु इदानीं गीताञ्जलि भगिनि तत्र अग्रिमं करोति वा तत्र रमते इति अस्तु भगिनि समीचीनमेव
किं महोदय पदं किं तत्र
रमते रमते
अस्तु अरमत अरमेता अरमेताम् अरमन्त अरमथाः अरमेथाम् अरमध्वम्
तत्र मध्यमपुरुषे द्विवचने किम् उक्तवती भगिनि
अरमध्वं
न न बहुवचने समीचीनं द्विवचने समीचीनं भगिनि एकारः अस्ति समीचीनम् अस्तु
आरमेथां
सत्यं सत्यं यकारः नास्ति केवलम् एकारः सत्यं तत्र विधिलिङ्गकारे यकारः अस्ति सत्यं चिन्तव अतः तत्र रमेताः तत्र न न न क्षम्यताम् अरमताः अरमताः
अरमथाः अरमेथाम् अरमध्वम् अरमे
सत्यम् अरमे अरमे
अरमावहि
अरमावहि
मामहि
हा बहु समीचीनमस्ति भगिनि अतः तत्र भवती स्थापितवती तत्र हा समीचीनं किन्तु चिन्ता मास्तु भगिनि बहुवारं तत्र कुर्मः तत्र लाभः अस्ति अस्तु इदानीम् अग्रे तत्र मोदते इति पुनः लङ्लकारः एव अस्ति हा
करोमि महोदय
हा
अस्तु अमोदत अमोदेताम् अमोदन्त अमोदथाः अमोदथा अमोदेथाम् अमोदध्वम् अमोदे अमोदावहि अमोदामहि
हा बहु समीचीनमस्ति भगिनि अस्तु समीचीनम् अस्तु इदानीं तत्र हा समयः अपि जातः अस्तु तर्हि तत्र जायते इति अस्ति समीचीनम् अस्तु इदानीं तत्र अग्रिमवर्गे तत्र अभ्यासान् कुर्मः तत्र प्रायशः गृहपाठरूपेण तत्र द्वितीय अभ्यासं कर्तुं शक्नुवन्ति इति मन्ये हा तत्र प्रेषयामि तत्र गृहपाठः इति तत् कुर्वन्तु यतोहि तत्र मनसि अपि स्थापितं भवति अस्तु तर्हि तत्र रघुपतिमहोदय तत्र अन्ते शान्तिमन्त्रं वदति महोदय
पाठे किमर्थं विशिष्टरूपाणि न दत्तानि
यतोहि भगिनि तत्र ते किम् इच्छन्ति साम्यम् अस्ति इति प्रदर्शयितुम् इच्छन्ति खलु अतः तत्र अतः कोष्टकरूपेण विशिष्टरूपाणि न दत्तानि तत्र
आरम्भे किञ्चित् लघु भवतु
लघु भवतु इति हा यदि तत्र विशिष्टरूपमपि अस्ति चेत् तत्र न तत्र कथं वक्तुं शक्नुमः पश्यतु तत्र साम्यम् अस्ति अतः एकस्मिन् पाठे एव वयं कर्तुं शक्नुमः इति
लक्ष्यं तु एकमेव
हा अतः तत्र सामान्यरूपं दृष्ट्वा पश्यतु तत्र आधिक्येन साम्यम् अस्ति अतः एकस्मिन् पाठे कुर्मः इति अस्तु अस्तु रघुपतिमहोदय
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः
धन्यवादः धन्यवादः